श्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृडया या ते रुद्र शिवा तनोरघोरपापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजाकशी यामिषम् गिरिशम् तहस्ते विवश्यत्तवे शिवाम् गिरित्रताम् कुरु मायिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदति वक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाजम्भयन् सर्वास्तयातु धान्यः असूयस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभिदो दिक्षश्रितात् सहस्रशो वैशागुम् हेडहे महे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहाद्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधोगे अस्य सत्त्वानोऽहम् देभ्यो करम् नमः प्रमञ्च धन्वनस्त्वमुभयोरात्रियोर्ज्याम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निषेद्य शल्याणामुका शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणभागुम् उत अनेशन्नस्येशव आभुरस्य निशम् गतिः या देहे दुर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तो विश्वतः अधो यिषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय ಸಾತ್ವಿಕಾಗ್ನಿ ಕಾಲಾಯ ಕಾಲಾಗ್ನಿ ರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಭಾಗವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸಸ್ಮಿನ್ ಜರಾಯತ್ವಿಷೇಮತೇ ಪತೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಬಬ್ಲುಷಾಯ ವಿದ್ಯಾದಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೆ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತಥಾ ವಿನೇಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂತ್ರಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವತ್ಕೃತಾಯೋಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತಯೇ ನಮೋ ನಮ. ಕೃತ್ಸ್ನವೇತಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹವಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣಗಿ ಶುಧಿಮತೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಸ್ರಿಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂಸದ್ಭ್ಯೋ ಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಜರದ್ಭ್ಯ ಪ್ರಗೃಂದಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೀಶಿನೇ ಗಿರಿಚರಾಯ ಕುಲುಂಜಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಯಶು ಮಭ್ಯೋದನ್ವಾಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಶ್ರಭ್ಯೋ ವೇತ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯಶ್ಚಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ತಿಷ್ಟದ್ಭ್ಯೋ ದಾವಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಸ್ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯ ತ್ರಿಗುಂಹದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ. ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ತ್ರಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. कुलादेभ्यः कर्मादेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यः श्वनिभ्यश्च वो नमो नमः स्वभ्यः स्वपतेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतध्वन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च समृद्धये च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शीभ्याय च नमः ओर्व्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽज्ञाय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च कल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वपिन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोऽज्ञाय च सदस्याय च नमो नाद्याय च वैशन्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो मन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः साराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः ప్రసరణాయ చోత్తరణాయ చ నమః ఆచార్యాయ చ లాద్యాయ చ నమః షష్ట్యాయ జపేంద్రాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమః ఇరింద్రాయ చ ప్రపత్యాయ చ నమః కేగం శిలాయ చ క్షయనాయ చ నమః కపర్దిరే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగం సవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్మ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చాభిఘ్రతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిలికేభ్యో దేవానాగుంహృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్మత్కేభ్యో నమః ఆనిర్హతేభ్యో నమః ఆమీమత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనా మాభిర్మాహుమో ఏషాం కించనామవత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజీ శివా రుద్రస్య భేషజీ తయానో మృణజీవసే ఇమాగం రుద్రాయ తవసే కపర్దినే శయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమస ద్విపదే చతుష్పదే విశ్వం పుష్టం రామే అస్మిన్నరాతులం మృడానో రుద్రోగనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం జయోశ్చ మనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియమానస్తనువో రుద్రరీరిషః మానస్తోకే తనయే మాన ఆయుషివానో గోషువానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వదేర్హవిష్మంతో నమసా విధేమతే ఆరాత్రే గోఘ్న ఉత పోరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్సు రక్షాజ నో అధి చ దేవ బ్రూహ్యదా చ నశర్మ యచ్చ ద్విపర్హా సుహిశ్రుతం గత్త సదంయువానం మృగన్న భీమముపహత్తుముగ్రం మృడా చ నిద్రే రుద్రస్తవానో అన్యందే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతృణత్వ పరిత్వేషస్య దుర్మతిరకాయో అవస్థిరా భగవభ్యస్తనుష్వమీడుత్తోకాయతనయాయ మృడయా మీడుష్టమశివతమ శివో నః సువనా భవ పరమే వృక్ష ఆయుధన్నిధాయ కృత్యం వసాన ఆచర పినాకం బిభ్రధారహి ్రిగిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుంహేతయోన్యమస్మన్నివ బంధుతాః సహస్రాణి సహస్రా భువోత్సవహేతయః తాసామీశానో భగవః పరాచేనాముకాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యా तेषाम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवे दर्शे भवादि नीलग्रीवाशतिकण्ठा शर्वा अधः क्षवाचराः नीलग्रीवाशतिकण्ठा दिवकुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पेजरा नीलग्रीवाभिलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विभज्यन्ति पात्रेषु पिबतो जनान् ये पथाम् प्रतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषाम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यान्येन्द्रलिक्षे ये दिव्ये शामन्दम् वातो वर्षमिषभस्तेभ्यो दश प्राचेत्दश दक्षिणा दश प्रतिचेत्दशो तेचेर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु ेयम् विष्णो यश्च नो द्वे स्थितम् भोजम् वेदतामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयवामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रवयुसम्पाशा मृत्यो मत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वाविशान्तकः तेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्यम् मे पाहि त्वमस्तु हि यस्व सुरन्वायो विश्वस्य क्षयति मे सजस्य यश्वामहेतो मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे च जोयगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयश्च मे प्रियम् च मेणु कामश्च मे कामश्च मे सोमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्दा च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवेच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे शान्ति शान्ति शान्तिः ॐ अत्रिणात्वाग्ने हन्मे कर्णेन जमदग्निना विश्वावसो ब्रह्मण भतः कृमीणागुम् राजा अप्येषागत्तपतिर्हतः अधो माताधो पिता अधो स्थूलाः अधो क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आशातिकाहताः श्वेताभिः सह सर्वेहताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् घन्भण्वसि ॐ शान्ति शान्ति शान्तिः ॐ आतोलहिन्द्रक्षुमन्तम् चित्रम् गाभम् सङ्गृभाय महाहस्ते दक्षिणेन विद्वाजित्वा तु विकूर्मिम् तु विदेकेष्णम् तु विमघम् तु विमात्रमभोभिः नगित्वा काशूरदेवा नमर्ता सोदिस्सन्तम् भीमम् नगाम्बारयन्ते एतोन्विन्द्रम् सवामेशानम् वस्वस्वराजम् नराधसामर्दिशन्नः प्रस्तोषदुभगासि छत्रपत्सामगीयमागानम् अभिराधसा जुहुरत् आनो बरदक्षिणेनाभिसव्येन प्रवृश इन्द्रमानो वसो निर्भाक् उपक्रमस्वाभरदृशदा दृष्णो जनान्नाम् अदाकाशोच्चरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुदम् सनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वचन्द्राः वशैश्चमक्षोजरन्ते गणानाम् त्वा गणपतिगुम्भवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पद आनशृण्वन्नो दिवस्येधसाधनम् निश्रुते गणपते गणेशु त्वामा गुर्वितमम् कवीनाम् नृते त्वत्क्रियते किञ्चनारे महामर्कम् भगवन् चित्रमच्च अभिज्ञानो मघवन्नादमानान् सखे गोदिवसुपते सखीनाम् रणम् कृतिरणकृत् सत्यचुष्मा भक्ते चिराभज रागे अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् अश्विनोर्वैषज्येन तेजसे ब्रह्मवर्चसा याभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् सरस्वत्यै भैषज्येन वेद्यायानाद्यायाभिषञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रेयशसे बलायाभिषञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णो हस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्वा साम्राज्येनाभिषञ्चामि इन्द्रस्य त्वा साम्राज्येनाभिषञ्चामि बृहस्पते स्वा साम्राज्येनाभिषञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनस्यामाशास्ते उत्तरान्देव यज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविशास्ते तदस्यातदस्यात् तदस्मै देवारासन्ताम् ध्रुपदा दिवेन मुमुचानः स्विन्नस्नाद्विमलादिवा भूतम् पवित्रेणेवाज्यम् आपशुन्धन्तु मैनसः भूर्भुवः सुवः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन गुञ्जेथा माकृत कस्य स्विन्धनम् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसा भृताः तागुस्ते प्रेत्या विगच्छन्ति ये के चात्महनोचनाः अनेजदेकम् मनसो जवीयु नैनद्येवा आप्नुवन् पूर्वमर्षत् तद्धावतो नानन्त्येति तिष्ठ तस्मिन्नपो मातरिष्वा दधाति तदेजति तन्नेजति तद्दूरे तद्वन्दिके तदन्तरस्य सर्वस्य तदु सर्वस्याश्च बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभू द्विजानतः तत्र को मोहकशोक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमव्रणमस्माभिरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभो स्वयंभूर्याथा यतोऽध्यान्यददाशाश्वतेभ्यः समाभ्यः अन्दम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोज विद्याया गुम्रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणाम् येनस्तद्विचचक्षिरे विद्याम् च विद्याम् च यस्तद्वेदोभयगुंसः अविद्यया मृत्यम् तेत्वा विद्यया मृतमश्नुते अन्दम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोजौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् इति शुश्रुमधीराणाम् येनस्तद्विचचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तेत्वा सम्भूत्या मृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षे यमसूर्य प्राजापत्यव्योहदश्मिन् समोह तेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तकम् शरीरम् क्रतो स्मर कृतगु स्मर क्रतो स्मर कृतगु स्मर अग्नेन यसुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोद्यस्मज्जुहुराणमेनो भूयिष्ठाम् ते नम उक्तिम् विदेम पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः चर्वाय नमः चर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः
वामदेवाय नमः ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्यो धघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदाशिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतय उमापतये पशुपतये नमो नमः कृतकम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गळम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रः सन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च यत् सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रचेतसे मेढुष्टमायतव्यसे ओचे मशन्तमगुम् हृदे सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजया धनेन त्यागेनैकेन अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजते तद्यदयो विशन्ते वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगाद्यतयच्छुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेश्वभूतम् यत्पुण्डरीकम् पुरमद्य सर्गस्रम् तत्राविदह्रम् गगनम् विशोकस्तस्मिन् यदन्धः सदुपासितव्यम् यो वेदादौ स्वरप्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिहीनस्य यः परस्य महेश्वरः राजाधिराजाय प्रजयसायिने नमो वयम् वै श्रवणाय कुर्महे समेकामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ता ज्ञायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।